्युपरःपरापतो नायमच्छा विदधानि वसत्त्वधिरस्तम् राजे वसत्त्वदिः अपामहे त्वा भजम् प्रयस्वन्तः सुते सजा पुत्रासो न पितरम् वाजसातजेमम् यक्षम् वाजसातजे ोपमिन्द्रसुपानाद्रेभिः कोशेन सिक्तमदम् नमंसादस्तादृशानो नमंसगः मदाय हर्यदायते द्विष्टमायधायसे आत्मा यच्छन्तु हरिजोलसूर्यमहाविश्वे वसूर्यम् अभिन्दद्दिवो निहितम् गुहानिधिम् वेर्न गर्भम् परिवेगमस्मन्यनन्ते अन्तरस्मानि व्रजम् वज्रीगवानि वसिषा सन्नङ्गीरस्तमः अपावृणोषयन्द्रः परीवृता द्वारयिषः परीवृताः दादृहानो वज्रमिन्द्रोगभज्रोक्षमेव दिग्ममसनायसं स्यादरिहत्यायसं स्यादिर्ज्ञानभोजसाशवोऽभिरिन्द्रपद्मनाः तष्टेव वृक्षम् मलिनो निवृष्टसि परस्वेव निवृष्टसि त्वम् रथा नद्य इन्द्रसप्तवेच्छा समुद्रमसृजो रथाङ्गिव वाजयतो रथाङ्गिव इत ऊदीर युञ्जतसमानवत्तमक्षीतम् धेनोरीभवनावे विश्वतो रसोजनाय विश्वतो रथः इमाम् देवासम् वसूयन्त आजभोरथम् न धीरस्वपा अदक्षिणः सुम्नाय त्वामादक्षिणुः शुम्भन्तो जेन्यम् यथा बाजेषु विप्रभाजिनम् अत्यविवसवसे सातये धना विश्वाधनानि सातये हिनत्पुरो न पतिमिन्द्रपूरवेदिको दासाय महि दासुषे कृतो वज्रेण दासुषे कृतो अतिथिग्वाय संवरम् गिरेरुग्रो अवाभरत् महोधनानिदय मानवोजसा विश्वाधनान्योजसा इन्द्रः समत्सुयजमानमार्यम् प्राभद्विश्वेषु सतमोदिमाजिषु स्वर्णेरेष्वादिषु मनाभेशासदम् प्रदार्पणम् कृष्णामारन्धयत् तक्षन्न विश्वम् ददृशानमोषधिन्यर्षसा नमोषति सूरश्चक्रम् प्रबृहज्जातवो यथा प्रभित्तेवाच मरुणामूढायति शाणामूढायति कुशलायत्वा रावतो जगन्नूतये कवे सुम्नानि विश्वामनूढेव दुर्वनिरहा विश्वेव दुर्वणीः सलोनव्येभिर्वृषकर्मन्नुक्थैः पुरान्धरतः पायुभिः पायिषग्मैः इमो दासेभिरिन्द्रस्तवानो वा वृथीथा अहोभिर्वज्रौ